अथ चतुर्थः पादः अङ्गस्य हलः नामी न तिसृजतसृ छन्दस्युभयथा नृच नोपधायाः सर्वनामस्थाने चासम्बुद्धौ वाशपूर्वस्य निगमे सान्तमहतः संयोगस्य अप्तृन्तृत्स्वसृनपृनेष्टृत्वष्टृक्षत्रुहोत्रपोत्रप्रशास्तॄणाम् इन्हन्पूषार्यम् नांशौ सौ च अत्वसन्तस्य चाधातोः अनुनासिकस्य क्विचलोः क्निति अज्झनगमांसनि तनोतेर्विभाषा क्रमश्चक्त्वि छ्वोषूडनुनासिके च ज्वरत्वरश्रिव्यविमवामुपधायाश्च राल्लोपः असिद्धवदत्राभात् स्नान्नलोपः अनिदितामहल उपधायाः क्ङिति दंशसञ्जस्वञ्जांशपि रञ्जेश्च घञ्चभावकर्णयोः स्यदोजवे अवोदैधौद्मप्रश्रथहिमश्रथाः नाञ्चेः पूजायाम् क्त्विस्कन्दिस्यन्दोः जान्तनशाम् विभाषा भञ्जेश्च चिणि शास इदं हलोः शाहौ हन्तेर्जः अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलिक्निति वाल्यपि नक्तिचिदीर्घश्च गमः क्वौ विद्वनोरनुनासिकस्यात् जनसनखनाम् सञ्झलोः ये विभाषा तनोतेर्यकि स नः क्तिचिलोपश्चास्यान्यतरस्याम् आर्धधातुके भ्रष्टोरोपधयोरमन्यतरस्याम् अतो लोपः यस्य हलः क्यस्य विभाषा नेरनिटि निष्ठायाम् सेटि जनिता मन्त्रे शमिता यज्ञे अयामन्ताल्वाये त्विष्णुषु ल्यपि लघुपूर्वात् विभाषापः युप्लुवोर्दीर्घश्छन्दसि क्षियः निष्ठायामण्यदर्थे वाक्रोशदैन्ययोः स्यसित्सीयुक्तासिषु भावकर्मणोरुपदेशेच्छनग्रहदृशाम् वाचिण्वदिट् च दीङो युडचिक्ङिति आतो लोप इति च ईद्यति घुमास्थागापाजहाति साम् हलि एर्लिङि वान्यस्य संयोगादेः नल्यपि मयतेरिदन्यतरस्याम् लुङ् लङ् लृङ्क्ष्वडुदात्तः आडजादीनाम् छन्दस्यपि दृश्यते नमाङ्योगे बहुलम् छन्दस्य माङ्योगेऽपि इरयोरे अचिष्णुधातुभ्रुवाम् योर्यङ्वङौ अभ्यासस्यासवर्णे स्त्रिया वांशसोः इणोयण् एरनेकाजो संयोगपूर्वस्य ओस्सुपि वर्षाभ्वश्च नभूसुधियोः छन्दस्युभयथा हुष्णुवो सार्वधातुके भुवो वुग्लुंग लिटोः ऊदुपधाया गोहः दोषोणौ वाचित्तविरागे मिताम् ह्रस्वः चिन्नमुलोर्दीर्घोऽन्यतरस्याम् खचिह्रस्वः ह्लादोनिष्ठायाम् छादेर्घेद्युपसर्गस्य इस्मन्त्रन्क्विषु च गमहनजनखनघसाम् लोपः क्नित्यनङि तनिपत्योश्छन्दसि घसिभसोर्हलि च हुजल्भ्यो हेर्धिः शृशृणु प्रकृवृभ्यश्छन्दसि अङितश्च चिणोलुक् अतो हेः उतश्च प्रत्ययादसंयोगपूर्वात् लोपश्चास्यान्यतरस्याम्वोः नित्यङ्करोतेः ये च अत उत्सार्वधातुके श्नसोरल्लोपः श्नाभ्यस्तयोरातः ईहल्यघोः इद्दरिद्रस्य भियोऽन्यतरस्याम् जहातेश्च आचहौ लोपोयि घ्वसोरेद्धावभ्यासलोपश्च अत एकहल्मध्येनादेशादेर्लिटि थलि च सेटि तृफलभजत्रपश्च राधो हिंसायाम् वाजृभ्रमुत्रसाम् फणाञ्च सप्तानाम् न शसददवादिगुणानाम् अर्वणस्त्रसावनयः मघवा बहुलम् भस्य पादःपत् वसोस्सम्प्रसारणम् वाह ऊठ श्वयुवमघो नाम तद्धिते अल्लोपो नः शपूर्वहन्धृतराज्ञामणि विभाषानिष्योः न संयोगाद्वमन्तात् अचः उद ईत् आतो धातोः मन्त्रेष्वाङ्यादेरात्मनः तिविंशतेर्डिति टेः नस्तद्धिते अह्नष्टखोरेव ओर्गुणः ढेलोपोकद्रुवाः यस्येति च सूर्यतिष्यागस्त्यमत्स्यानाम् य उपधायाः हलस्तद्धितस्य आपत्यस्य च तद्धिते नाति क्यच्व्योश्च बिल्वकादिभ्यश्चस्य लुक् तुरिष्ठे मे यस्सु टेः स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणाम् यणादिपरम् पूर्वस्य च गुणः प्रियस्थिरस्फिरोर्बहुलगुरुवृद्ध तृप्रदीर्घवृन्दारकाणाम् प्रस्थस्पवर्बम् हि गर्वर्षित्रब्द्राघिवृन्दाः बहोर्लोपो भूच बहोः इष्ठस्य इट् च ज्यादादीयसः ररुतोहलादेर्लघोः विभाषर्जोश्छन्दसि प्रकृत्यैकाच् इनण्यनपत्ये गाथिविदथिकेशिगणिपणिनश्च संयोगादिश्च ये चा भाव कर्मणोः आत्माध्वानौखे नम पूर्वोपत्ये वर्मणः ब्राह्मो जातौ कार्मस्ताच्छील्ये औक्षमनपत्ये दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेय वाशिनायनि भ्रौणहत्य धैवत्य सारवैक्ष्वाक मैत्रेय हिरण्मयानि ऋत्व्यवास्त्व्यवास्त्वमाध्वी हिरण्ययानि छन्दसि इति चतुर्थः पादः इति षष्ठोऽध्यायः।